ततो युद्ध परिश्रांतं समरे चिन्तया स्थितं रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितं नैव तैश्च समागम्य द्रष्टुमभ्यागतोरणम् उपागम्या ब्रवीद्राममगस्त्यो भगवान् ऋषिः राम राम महाबाहो शृणु गुह्यं सनातनं येन सर्वानरीन् वत्स समरे विजयिष्यसि आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनं जयावहं जपे नित्यमक्षयं परमं शिवं सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनं चिन्ताशोकप्रशमनम् आयुर्वर्धनमुत्तमम् रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतं पूजयस्वविवस्वन्तं भास्करं भुवनेश्वरम्
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितं रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितं दैवतैश्च समागम्य द्रष्टुमभ्यागतोरणम् उपागम्या ब्रवीद्राममगस्त्यो भगवान् ऋषिः राम राम महाबाहो शृणु गुह्यं सनातनं येन सर्वान्नरीन् वत्स समरे विजयिष्यसि आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनं जयावहं जपेन्नित्यम् अक्षय्यं परमं शिवं सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनं चिन्ताशोकप्रशमनं आयुर्वर्धनमुत्तमं रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतं पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरं ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितं रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितं दैवतैश्च समागम्य द्रष्टुमभ्यागतोरणम् उपागम्या ब्रवीद्राममगस्त्यो भगवान् ऋषिः राम राम महाबाहो शृणु गुह्यं सनातनं येन सर्वान्नरीन् वत्स समरे विजयिष्यसि आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनं जयावहं जपेन्नित्यम् अक्षय्यं परमं शिवं सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनं चिन्ताशोकप्रशमनं आयुर्वर्धनमुत्तमं रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतं पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः एष देवासुरगणान् लोकान् पाति गवस्तिभिः एष ब्रह्मा च विष्णुश्च शिवस्कन्दः प्रजापतिः महेन्द्रो धनदः कालो यमः सोमो ह्यपाम्पतिः पितरो वसवः साध्या ह्याश्विनो मरुतो मनुः वायुर्वह्निः प्रजा प्राण ऋतुकर्ता प्रभाकरः आदित्यसविता सूर्यः खगः पूषा घवस्तिमान् सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः हरिदश्वसहस्रार्चिर् सप्तसप्तिर्मरीचिमान् तिमिरोन्मथनः शम्भुस्पष्टा मार्ताण्ड अंशुमान्
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः एष देवासुरगणान् लोकान् पाती गभस्तिभिः एष ब्रह्मा च विष्णुश्च शिवस्कन्दः प्रजापतिः महेन्द्रो धनदः कालो यमः सोमो ह्यपाम्पतिः पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः वायुर्वह्निः प्रजा प्राण ऋतुकर्ता प्रभाकरः आदित्यसविता सूर्यः खगः पूषा गभस्तिमान् सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् तिमिरोन्मथनः शम्भुस्त्वष्टा मार्ताण्ड अंशुमान् सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः एष देवासुरगणान् लोकान् पाती गभस्तिभिः एष ब्रह्मा च विष्णुश्च शिवस्कन्दः प्रजापतिः महेन्द्रो धनदः कालो यमः सोमो ह्यपाम्पतिः पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः वायुर्वह्निः प्रजा प्राण ऋतुकर्ता प्रभाकरः आदित्यसविता सूर्यः खगः पूषा गभस्तिमान् सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् तिमिरोन्मथनः शम्भुस्त्वष्टा मार्ताण्ड अंशुमान्
हिरण्यगर्भ्य शिशिरस्तपनो भास्करो रविः अग्निगर्भोदितेः पुत्रः शङ्खशिशिरनाशनः व्योमनाथस्तमो भेदी ऋग्यजुः सामपारगः धनवृष्टिरपां मित्रो विन्ध्यवीथी प्लवङ्गमः पातपी मण्डले मृत्युः पिङ्गलः सर्वतापणः कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः नक्षत्रग्रहताराणामधिपो विश्वभावनः तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते नमः पूर्वाय गिरये पश्चिमाय द्रवे नमः ज्योतिर्गणानां पतये दिनाधिपतये नमः जयाय जय भद्राय हर्यश्वाय नमो नमः नमो नः नमः सहस्रांशो आदित्याय नमो नमः
हिरण्यगर्भशिशिरस्तपनो भास्करो रविः अग्निगर्भो दितेः पुत्रः शङ्खशिशिरनाशनः व्योमनाथस्तमो भेदी ऋग्यजुस्सामपारगः धनवृष्टिरपां मित्रो विन्ध्यवीथी प्लवङ्गमः आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः नक्षत्रग्रहताराणामधिपो विश्वभावनः तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ज्योतिर्गणानां पतये दिनाधिपतये नमः जयाय जय भद्राय हर्यश्वाय नमो नमः नमो नमः सहस्रांशो आदित्याय नमो नमः हिरण्यगर्भशिशिरस्तपनो भास्करो रविः अग्निगर्भो दितेः पुत्रः शङ्खशिशिरनाशनः व्योमनाथस्तमो भेदी ऋग्यजुस्सामपारगः धनवृष्टिरपां मित्रो विन्ध्यवीथी प्लवङ्गमः आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः नक्षत्रग्रहताराणामधिपो विश्वभावनः तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ज्योतिर्गणानां पतये दिनाधिपतये नमः जयाय जय भद्राय हर्यश्वाय नमो नमः नमो नमः सहस्रांशो आदित्याय नमो नमः
नम उग्राय वीराय सारंगाय नमो नमः नमः पद्मप्रबोधाय मार्तांडाय नमो नमः ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे भास्वते सर्वभक्षाय रौद्राय वपुषे नमः तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः सप्तचामीकराभाय मह्नये विश्वकर्मणे नमस्तमोऽभिनिघ्नाय ऋषये लोकसाक्षिणे नाशयत्येष वै भूतं तदेव सृजति प्रभुः पायत्येष तपत्येष वर्षत्येष गभस्तिभिः
नम उग्राय वीराय सारंगाय नमो नमः नम पद्मप्रबोधाय मार्तांडाय नमो नमः भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे तमोघ्नाय हिमघ्नाय शत्रुघ्नाय मितात्मने कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः तप्तचामीकराभाय वह्नये विश्वकर्मणे नमस्तपोभिनिघ्नाय रुचये लोकसाक्षिणे नाशयत्येष वै भूतं तदेव सृजति प्रभुः पायत्येष तपत्येष वर्षत्येष गभस्तिभिः नम उग्राय वीराय सारंगाय नमो नमः नम पद्मप्रबोधाय मार्तांडाय नमो नमः भास्वते सर्वभक्षाय रौद्राय वपुषे नमः, ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे, तमोघ्नाय हिमघ्नाय शत्रुघ्नाय मितात्मने, कृतघ्नघ्नाय देवाय ज्योतिषाम्पतये नमः, तप्तचामीकराभाय वह्नये विश्वकर्मणे, नमस्तपोभि निघ्नाय रुचये लोकसाक्षिणे, नाशयत्येष वैभूतं तदेव सृजति प्रभुः, पायत्येष तपत्येष वर्षत्येष गभस्तिभिः।
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः, एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणां, वेदाश्चक्रतवश्चैव क्रतूणां फलमेव च, यानि कृत्याणि लोकेषु सर्व एष रविः प्रभुः, येनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च कीर्तयन् पुरुषः कश्चिन् नावसीदति राघव, पूजयस्वै नमेकाग्रो देवदेवं जगत्पतिम्, एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि, अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि, एवमुक्त्वा तदागस्त्यो जगाम च यथागतम्।
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः, एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणां, वेदाश्चक्रतवश्चैव क्रतूणां फलमेव च, यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः, एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव, पूजयस्वै नमेकाग्रो देवदेवं जगत्पतिम्, एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि, अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि, एवमुक्त्वा तदागस्त्यो जगाम च यथा गतम्। एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः, एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम्, वेदाश्चक्रतवश्चैव क्रतूणां फलमेव च, यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः, एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव, पूजयस्वै नमेकाग्रो देवदेवं जगत्पतिम्, एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि, अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि, एवमुक्त्वा तदागस्त्यो जगाम च यथा गतम्।
एतत् श्रुत्वा महातेजः नष्टशोकोऽभवत् तदा, धारयामास सुप्रीतो राघवः प्रयतात्मवान्, आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान्, त्रिराचम्यशुचिर्भूत्वा धनुराधाय वीर्यवान्, रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमते, सर्वयत्रेण महता वधेतस्य धृतो भवते, अथ रविरवदन् निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः, निशिशरपतिसङ्ख्यं विदित्वा सुरगणमध्य गतो वचस्त्वरेति।
एतत् श्रुत्वा महातेजा नष्टशोको भवत्तदा, धारयामास सुप्रीतो राघवः प्रयतात्मवान्, आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान्, त्रिराचम्य शुचिर्भूत्वा धनुराधाय वीर्यवान्, रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत्, सर्वयत्नेन महता वधे तस्य धृतोऽभवत्। अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः, निशिचरपतिसङ्ख्यं विदित्वा सुरगणमध्यगतो वचस्त्वरेति। एतत् श्रुत्वा महातेजा नष्टशोको भवत्तदा, धारयामास सुप्रीतो राघवः प्रयतात्मवान्, आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान्, क्रीराचम्य शुचिर्भूत्वा धनुराधाय वीर्यवान्। रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत्। सर्वयत्नेन महता वधे तस्य धृतोऽभवत्। अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः। निशिचरपतिसङ्क्ष्यं विदित्वा सुरगणमध्यगतो वचस्त्वरेति।